पुरोजिते भो अन्धसस्वदाजमादयित्नवे अपश्वानम् ष्टधिष्टनसखा यो दीर्घजिह्व्यम् यो धारजापापकजा परिप्रस्यन्दते सुतः इन्दुरश्वानकृत्याः तन्दुरोषमभेन रस्वामम् विश्वाच्या धिया यज्ञम् हिन्वन्द्यद्रिभिः सुदा सोमधुमत्तमा सोमा इन्द्राजमन्दिनाः पवित्रवन्तो अक्षरम् देवान् गच्छन्तु भवदाः इन्दुरिन्द्राजपवत इति देवासो अब्रुवन् वाचस्पतिर्मखस्य देविश्वस्येषा न ओजसा सहस्रधारः पवते समुद्रो वाचमीङ्कयः स्वमः पतेरजीणाम् सखेन्द्रस्य दिवे दिवे अयम् भोषा रजिर्भगः स्वमः पुराणो अर्षति पतिर्विश्वस्य भोमनो व्यक्षत्रोदसी उभे स्वमप्रिया अनोषधगा वोमदा जघृष्वजः सोमासः कृण्वते पदः पवमानास इन्दवः य ओजिष्ठस्तमाभरपवमानश्रवाह्यम् यः पञ्चजर्षडेरभिरजिञ्जेनवनामहै सोमाः पवन्त इन्दवोऽस्मभ्यम् गादुमित्तमाः मित्राः स्वपादा अरेवसः स्वाध्यस्वर्विदाः सुष्वाणा सोऽव्यद्रभिश्चिदा नागोरधित्वचे इषमस्मभ्यमभिदः समस्वरन्वसुविदाः एते बोधापि पश्चिदः सोमासोदध्या शिरः सूर्या सौरदर्शदासो जिगत्नवो ध्रुवाघृते प्रसन्वानस्यान्धसामर्तो न वृतदद्वजाः अपश्वानवराधसम् हतामखन्न भृगवः आजाभिरत्ये अव्यतभुजेन पुत्र ओण्याः सरज्जारो न जोषणाम् भरो न जो निपासदम् स वीरो दक्षसाधनो वियस्तस्तम् भरोदसी हरिः पवित्रे अव्यतमेधानजो निपासदम् अव्योपारेभिः पपते सोमो गव्ये अधित्वजे करिक्रदत्पृशा हरिरिन्द्रस्याभ्येति निष्कृतम्